इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधितिवारी आदौ मुख्याः वार्ताः संसदः उभयोः सदनयोः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः अभिभाषणानन्तरं धन्यवाद प्रस्तावे चर्चा संजाता प्रधानमन्त्री नरेन्द्रमोदी डिजिटल इण्डिया इत्यभिनामधेयकस्य आंकीय भारतोपक्रमस्य सफलतायाः नववर्षाणां सम्पूर्त्यवसरे प्रसन्नताम् अभिव्यक्तवान् गृहमन्त्री अमितशाहः अवोचत् यत् नूतनापराधिक विधयः त्वरितन्यायेन सह पीडितानाम् अधिकारान् सुनिश्चयिष्यन्ति राष्ट्रिय परीक्षाभिकरणेन एनटीए इत्यनेन अद्य नीट यूजी पुनः परीक्षायाः अनन्तरं अद्य 63,500 परीक्षार्थिनां संशोधित परिणामः समुद्घोषितः अपि च भारतीय महिला क्रिकेट दलेन अद्य अपहराह्ने चेन्नई नगरे एकस्याः अपि क्रीडिकायाः हानिं विनैव दक्षिणाफ्रिका दलं पराजितम् इदानीं वार्ताः विस्तरेण संसदः उभयोः सदनयोः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः अभिभाषणानन्तरं धन्यवाद प्रस्तावे चर्चा समनुष्ठिता भारतीय जनता पार्टीति दलस्य सांसदः अनुराग सिंह ठाकुरः चर्चायां प्रतिभाग्यं स्वीकुर्वन् गत दशवर्षेषु प्रशासनद्वारा विभिन्न क्षेत्रेषु कृतोपक्रमाणां प्रशंसाम् अकरोत् तेनोक्तं यत् अर्थव्यवस्थायां वृद्धिः जनकल्याण कार्याणि च प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे प्रशासनद्वारा समुत्थापित पदक्षेपस्य परिणामः वर्तते इतः पूर्वं विपक्षीयनेत्रा राहुलगान्धिना नीटाख्यायाः परीक्षायां कथितरूपेण संजात अनियमिततानां प्रसंगोऽपि समुत्थापितः तेनोक्तं यत् राष्ट्रस्य संसदा विद्यार्थिभ्यः एकः सन्देशः गच्छेत् यत्र नीटेति विषयः संसदेऽपि महत्वपूर्णः अस्तीति श्रीगान्धी स्वकीये वक्तव्ये अग्निवीर मणिपुरादि विषयान् अपि उत्थापितवान् उभाभ्यां सदनाभ्यां भारतीय क्रिकेट दलद्वारा 20-20 पुरुष विश्व चषक स्पर्धाजये भारतीय दलाय वर्धापनानि अपि प्रदत्तानि 23-2000 त्रयः नूतनापराधिक विधयः भारतीय न्याय संहिता भारतीय नागरिक सुरक्षा संहिता भारतीय नागरिक सुरक्षा अधिनियमश्च अद्यारभ्य प्रवर्तन्ते केन्द्रीय गृहमन्त्रिणा अमितशाहेन प्रोक्तं यत् त्रयोऽपि आपराधिक विधयः राष्ट्रे सर्वातिनूतनताम् आपराधिक न्यायप्रणालीं समारप्स्यन्ति तेनोक्तं यत् आपराधिक न्यायप्रणाली सम्प्रति पूर्णतया स्वदेशीया वर्तते स्वतन्त्रतायाः अनन्तरञ्च भारतीय लोकाचारे अन्तर्निहिता वर्तते विधित्रयस्य विषये भाषमाणः गृहमन्त्री नवदिल्ल्यां वार्ताहरान् अवोचत् यत् नूतनविधयः त्वरितन्यायेन सह पीडितानाम् अधिकारान् सुनिश्चयिष्यन्ति गृहमन्त्रिणा प्रोक्तं यत् प्रशासनेन नूतन प्रावधानैः सह राजद्रोहविधिः समापितोऽस्ति महिलाः शिशवश्च प्राथमिकतायां सन्ति एतदर्थं 35 अनुभागैः सह 13 प्रावधानयुतः एकः विशिष्टाध्यायः सुनियोजितः अस्ति श्रीशाहेन अग्रे उक्तं यत् सामूहिक दुराचाराय जघन्य अपराधत्वात् 20 वर्षाणां कारावासः उत वा आजीवन कारावासस्य दण्डः सुनिर्धारितोऽस्ति अवयस्कैः सह कृत दुराचाराय मृत्युदण्डः सुनिश्चितः अस्ति श्रीशाहेन उक्तं यत् पीडितायाः वक्तव्यं तस्याः एव गृहे स्वजनैः सह संस्थाप्य एव अधिकारिभिः ग्रहीष्यते विधिषु आन्तर्जालिक माध्यमैरपि प्राथमिक्यांकनं व्यवस्थापि वर्तते श्रीशाहेन विधि विषयेषु दुष्प्रचाराय विपक्षिणोऽपि गर्हिताः तेनोक्तं यत् विषयेऽस्मिन् 9 होराधिकं लोकसभायां 6 होराधिकं च राज्यसभायां चर्चा अस्तीति संजाता संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च newsonair इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी डिजिटल इण्डिया इत्यभिनामधेयकस्य आंकिकीय भारतोपक्रमस्य सफलतायाः नववर्षाणां सम्पूर्त्यवसरे प्रसन्नताम् अभिव्यक्तवान्। एकस्मिन् सामाजिक संचार माध्यम पटले श्रीमोदी प्रत्यपादयत् यत् डिजिटल इण्डिया इति एकः सुदृढ भारतस्य प्रतीको वर्तते, यः मानवजीवने सरलतां पारदर्शितां च संवर्धयति। व्यतीतेषु दशवर्षेषु उल्लिखितां प्रगतिमपि असौ विनिमयी कृतवान्। राष्ट्रिय परीक्षाभिकरणेन एनटीए इत्यनेन अद्य नीट यूजी इत्यस्याः पुनः परीक्षायाः अनन्तरं अद्य 63.5 लाख परीक्षार्थीनां संशोधित परिणामः समुद्घोषितः। नवीन परिणामानाम् आनन्तर्यम् एनटीए इत्यनेन सर्वेषां परीक्षार्थीनाम् उत्तीर्ण श्रेण्यः अपि परिमार्जिताः। अनेन अभिकरणेन एकस्यां विज्ञप्तौ समुदीरितं यत् समेषां परीक्षार्थीनां संशोधित अंकतालिकापि अन्तर्जालपटले उपलब्धा अस्ति। एतस्यां विज्ञप्तौ उल्लिखितम् अस्ति यत् 63.5 लाख परीक्षार्थीषु 13.8 लाख परीक्षार्थिनः पुनः परीक्षां प्रदत्तवन्तः। परीक्षार्थिनः exams.nta.ac.in/neet इत्यस्मिन् पटले संशोधित अंकतालिकां द्रष्टुं शक्नुवन्ति। अवधेयं वर्तते यत् एतस्यां परीक्षायां संजात प्रवञ्चनाम् अभिलक्ष्य गुजरात राज्ये केन्द्रीयान्वेषण अभिकरणेन एकस्य सर्वकारीयेतर विद्यालयस्य स्वामी निगडितः। अयं विद्यालयः तेषु केन्द्रेषु अन्यतमो वर्तते यत्र मई मासस्य 5 दिनांके नीट यूजी इति परीक्षा समायोजिता आसीत्। तैल विपणन उद्यमैः वाणिज्यिकस्य एलपीजी इत्यस्य अनिलकोषस्य पूर्व निर्धारिते मूल्ये 30 रूप्यकाणि न्यूनीकृतानि। 19 किलोग्राममितस्य वाणिज्यिक अनिलकोषस्य मूल्य परिवर्तनम् अद्य आरभ्य क्रियान्वितं भविष्यति। मूल्ये न्यूनतायाः कारणेन दिल्ल्याम् अस्य अनिलकोषस्य सकल विक्रयमूल्यम् अधुना 67.6 लाख जातम्। भारतीय जनता पार्टीति दलम् अद्य पश्चिमबंगाले शासनारूढे तृणमूल कांग्रेस दले आरोपं साधयत् प्रोक्तवत् यत् एतद्दलम् अस्मिन् राज्ये उपद्रविणः प्रसारयन्ति। नवदिल्ल्यां संचारमाध्यमैः सह वार्तां साधयन् दलप्रवक्ता गौरव भाटियाः आरोपितवान् यत् तृणमूल कांग्रेस प्रमुखः पश्चिमबंगालस्य च मुख्यमंत्री ममता बनर्जी संविधाने अपि च तस्य मूल्येषु नैव विश्वासं प्रकटयति। असौ अग्रे आक्षिप्तवान् यत् सा उपद्रविभ्यः सर्वविध मुक्तिम् अपि अयच्छत्। संदेशखाली प्रकरणं सादृशं पश्चिम बंगाले ममता शासनस्य कुमुखः प्रत्येकं दीक्षु प्रकटयन् अस्ति। सूचना प्रौद्योगिक मन्त्रालयेन मासस्यास्य तृतीये दिनांके नवदिल्ल्यां द्विदिवसात्मकस्य कृत्रिम प्रज्ञा सम्मेलनम् आयोज्यते। मन्त्रालयः विज्ञापितवान् यत् अस्य सम्मेलनस्य उद्देश्यं कृत्रिम प्रज्ञा प्रौद्योगिकीनां नैतिक प्रेरक विकासौ प्रति भारतस्य समर्पणं प्रख्यापयन् सहयोग ज्ञानयोः आदान प्रदानस्य संवर्धनमिति अस्ति।